अस्तु, सर्वेभ्यो नमस्कारः. इदानीं वर्गः आरम्भः जातः. विशेषक्रियापदानि अनेकानि सन्ति. तत्र जानाति इति तस्य रूपः. लक्ष्मीकान्त् महोदय, नमस्कारः महोदय. हरि महोदय, तत्र जानाति. नमस्कारः लक्ष्मीकान्त् महोदय, स्वागतं. प्रथमवारम् आगच्छति इति मन्ये. नमस्कारः.
आं महोदय.
स्वागतं महोदय. हरि महोदय, जानाति इति तस्य द्विवचनं अपि बहुवचनं, प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष, तत् तस्य रूपम् एकवारं वदतु.
कः जानाति?
केवलं जानाति इति, केवलं जानाति इति वदतु.
जानाति, जानीतः, जानन्ति. प्रथमपुरुषस्य.
अस्तु, प्रथमपुरुषः. इदानीं मध्यमपुरुषः.
वयं केवलं प्रथमपुरुषः कृतवन्तः.
अत्र केवलं प्रथमपुरुषः कृतवन्तः. अस्तु अस्तु, धन्यवादः सरला भगिनी. अस्तु, भानुभगिनी, भवती क्रीणाति, क्रीणाति इति,
क्रीणाति, क्रीणीतः, क्रीणन्ति.
हा, समीचीनम्. अस्तु, भानुचैतन्य महोदय, तत्र गृह्णाति इति. अस्तु, रामनाथन् महोदय, गृह्णाति इति वदति वा? रामनाथन् महोदय.
गृह्णीतः,
गृह्णन्ति, गृह्णन्ति. समीचीनं महोदय, समीचीनं. सहोदय महोदय, तत्र करोति इति.
करोति, कुरुतः, कुर्वन्ति.
हा, समीचीनम्. अस्तु, सरलभगिनी, तत्र शक्नोति इति.
शक्नोति, शक्नुतः, शक्नुवन्ति.
हा, समीचीनम्. हा, अपि बालचैतन्य महोदय, वदति वा इदानीं, शृणोति इति. अस्तु, श्रीकान्त् महोदय, श्रीकान्त् महोदय प्रथमवारम् आगतवान् इति जानामि, किन्तु पुटसङ्ख्या 39 मध्ये तत्र शृणोति इति. हा, तस्य रूपं
शृणोति, शृणुतः, शृण्वन्ति.
हा, समीचीनं महोदय, समीचीनं. लक्ष्मीकान्त् महोदय, भवानपि वक्तुम् इच्छति वा अद्य एव? अस्तु, अत्र चिनोति इति तत् करोतु. पेज् 39, पुटसङ्ख्या 39 मध्ये, पुटसङ्ख्या 39 मध्ये, हा, चिनोति इति तस्य द्विवचनरूपं, बहुवचनरूपं, प्रथमपुरुषः.
हा, चिनोति, चिनुतः, चिन्वन्ति.
हा, तावदेव, समीचीनं महोदय. गीता भगिनी वक्तुम् इच्छति वा अग्रे? प्राप्नोति.
आं महोदय, प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति.
प्राप्नुवन्ति, समीचीनम्. अन्य कः, अन्य कोऽपि वक्तुम् इच्छति वा? अस्तु, भानुचैतन्य महोदय, अहं न अद्य वक्तुम् इच्छति वा भवान्? अस्तु अस्तु, तत्र न श्रूयते. अस्तु, हा, एतत् अस्ति रूपं, जानाति, जानीतः, जानन्ति. तत्र कः जानी, कः जानाति, कौ जानीतः, काः जानन्ति इति तत्र अस्ति. तत्र गृहपाठः आसीत् अभ्यासः इति. तत्र चित्रं, पुटसङ्ख्या 39 मध्ये अधोभागे चित्रमस्ति. तत्र अनेकाः जनाः सन्ति. तत्र किञ्चित् वाक्यानि लिखन्तु इति अभ्यासः आसीत्। रामनाथन् महोदय, भवान् पठति वा तत्र अभ्यास, द्वितीय अभ्यासः, वाक्यानि कानि रचितानि कृपया पठतु, वदतु।
चर्चाः सन्ति, मन्दिरम् अस्ति, महिलाः सन्ति, बालकाः सन्ति।
अस्तु अस्तु, हा अस्तु, समीचीनं महोदय।
शुनकः, एकः शुनकः सन्ति, अस्ति,
अस्तु 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 महोदय, धन्यवादः। सहदेव महोदय किमपि वक्तुम् इच्छति वा, तत्र वाक्यमस्ति वा?
आम्, बालकाः धावन्ति,
बालकाः धावन्ति, समीचीनं। तत्र बालकाः धावन्ति इति बहुवचने अस्ति, द्विवचने, द्विवचने किं भवति?
बालकौ धावतः।
समीचीनं, बालकौ धावतः, समीचीनं महोदय। अन्यत् वाक्यम्? अन्यत् वाक्यमस्ति वा?
बालकौ उपविशतः,
बालकौ उपविशतः, अस्तु अस्तु, बालकौ उपविशतः, अस्तु। भानुभगिनी, वाक्यमस्ति वा?
आं महोदय, महिले भाषतः,
महिले भाषतः, वचनं किं तत्र?
महिले द्विवचनं,
द्विवचनं, समीचीनं भगिनि। अपि अग्रे,
महिला चरति अथवा गच्छति,
महिला गच्छति अथवा चरति, समीचीनं भगिनि।
बालकः दृष्टति अथवा
बालकः पश्यति, अस्तु, समीचीनं भगिनि, समीचीनं, अस्तु।
कुक्कुरः क्रीडति,
कुक्कुरः क्रीडति, समीचीनं भगिनि, अस्तु, समीचीनं भगिनि। अन्यवाक्यमस्ति वा?
आम् आं महोदय, पुरुषाः भाषन्ते,
पुरुषाः भाषन्ते, इदानीं केवलं परस्मैपदी धातु इति अस्ति चेत् अतः सम्भाषणं कुर्वन्ति इति।
आं महोदय, पुरुषौ, पुरुषौ सम्भाषणं कुरुतः,
कुरुतः, समीचीनं भगिनि, अस्तु।
पतिपत्नी,
वदतु,
पतिपत्नी विवदतः,
विवदतः, समीचीनं भगिनि, बहु समीचीनम् अस्ति, अस्तु।
हरि ओं महोदय, अहं भानुचैतन्य, इदानीं वक्तुं शक्नोमि फोन् माध्यमे? इदानीमेव?
अस्तु 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 महोदय, अस्तु, वदतु, अतः वदतु, तत्र वाक्यानि वदतु।
जन्तुः चरन्ति,
जन्तुः चरन्ति, जन्तुः वचनं किं?
जन्तुः, जन्तवः,
जन्तवः चरन्ति, अस्तु, चरन्ति, अस्तु। अन्यत् वाक्यम् अस्ति वा?
बालकौ, बालकौ गच्छतः,
बालकौ,
द्वे बालकौ तत्र,
द्वे बालकौ
धावन्ति, धावतः, बालकौ धावतौ,
धावतौ, अस्तु, समीचीनं महोदय। चरणा भगिनी वक्तुमिच्छति वा?
अस्तु महोदय, एते द्वे युवत्यो वार्तालापं कुरुतः, युवकः युवती च वृक्षस्य अधः उपविशतः, महिलायाः पुरतः शुनकः अस्ति, तत्र वृक्षाः वृक्षयोः पृष्ठतः पर्वतः सः द्वे पर्वतः द्वौ पर्वतः
पर्वतः अथवा
द्वौ पर्वतौ स्तः
स्तः अस्तु समीचीनं भगिनि वदतु वदतु
अस्तु अस्तु द्वे अन्ये समान वाक्यानि
अस्तु भगिनि अस्तु 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 धन्यवादः समीचीनम् अस्ति
धेनुः चरति
धेनवः चरन्ति इति दत्तमेव अस्ति किन्तु समीचीनं भगिनि समीचीनं हरि महोदय वक्तुमिच्छति वा
अस्तु महोदय भर्ता भार्या वृक्षस्य अधः विश्रामं कुरुतः
कुरुतः समीचीनं
द्वे महिले वदतः
वदतः
त्रि मित्राणि वदन्ति
तत्र त्रीणि इति अस्ति त्रीणि इति मित्राणि अथवा मित्रत्रयम् इति तदपि वक्तुं शक्नुमः अथवा त्रीणि मित्राणि इति भवति
अस्तु महोदय बालौ क्रीडतः महिला अजं पश्यति
महिला
अजं पश्यति
अजम् इत्युक्ते अस्तु 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 समीचीनं महोदय समीचीनं
बालौ धावतः
बालकौ धावतः
महिला पर्वतौ पश्यति
तत्र भवान् एतत् एतत् न कृतं किन्तु तत्र पर्वतं पश्यति इति स्वीकरोतु इदानीं द्विवचने किम् अस्ति इति अग्रे गत्वा कर्मपदस्य रूपम् एतावता न कृतवन्तः किन्तु पर्वतं पश्यति इति स्वीकरोतु इदानीम् अग्रे तस्य रूपं कीदृशं कीदृशम् इति अग्रे पश्यामः किन्तु समीचीनं वाक्यं समीचीनम् अस्ति महोदय अन्य कोऽपि वक्तुम् इच्छति वा लक्ष्मीकान्त महोदय किमपि वक्तुम् इच्छति वा
अस्ति सा वदति
किं महोदय
मम नाम
शुनकः धावति
शुनकः धावति अस्तु
देवालयमस्ति
देवालयमस्ति
महिले
किं
पुरुषाः सम्भाषणं कुर्वन्ति
पुरुषाः सम्भाषणं कुर्वन्ति समीचीनं
धावतौ
बालकौ धावतौ समीचीनम् अस्तु
महिला भ्रमति
महिला भ्रमति समीचीनं समीचीनं महोदय कः कः अत्र उक्तवान् लक्ष्मीकान्त महोदय
महिला भ्रमति इत्युक्ते किमर्थं महोदय
तत्र चरति अथवा वाण्डर्स् चरति वुड् मीन् मूव् भ्रमति तदपि वक्तुं शक्नुमः लक्ष्मीकान्त महोदय अन्य वदतु महोदय तदपि तदपि वक्तुं शक्नुमः समीचीनमेव लक्ष्मीकान्त महोदय अन्यः कः कः अस्ति तत्र नामानि कृपया उच्यत वदतु
पुत्री गायत्री अस्ति
गायत्री
सा अपि सम्भाषणं करोति
करोति समीचीनं नमस्कारः गायत्री नमस्कारः अन्य
नमस्कारः
नमस्कारः भगिनि
पत्नी मेघा अपि अत्र अस्ति
नमस्कारः भगिनि मेघा भगिनी नमस्कारः अपि अस्तु
पुत्रः व्यस्तः अस्ति होम्वर्क्
अस्तु 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 केवलं यस्य यः वदति सः कः इति ज्ञानं भवतु इति अतः एव अहं नामनि पृष्टवान् तावदेव धन्यवादः महोदय अस्तु श्रीकान्त् महोदय तत्र श्रीकान्त् महोदय तत्र किमपि वक्तुम् इच्छति वा
धेनुष्टः मन्दिरमस्ति
धेनु धेनुष्टः समीचीनं
मन्दिरम् अस्ति अन्यत् सर्वाणि पूर्वमेव
उक्तवान् उक्तम् अस्तु उक्तम् अस्तु समीचीनं महोदय समीचीनम् अस्तु तत्र अग्रे अपि अग्रिम अभ्यासः अस्ति तत्र कोष्टकस्य साहाय्येन किमपि वाक्यं वदतु इति तत् तदपि गृहपाठः आसीत् तत्र कः वदति प्रथमतया पश्यामः गीता भगिनी अग्रिमं तृतीय अभ्यासः अग्रिमपुटे तत् तत्र वाक्यं यत् रक्तवर्णे अस्ति तद् पठित्वा भवत्याः वाक्यानि वदतु कृपया
एतस्य कोष्टकस्य साहाय्येन यथोदाहरणं पञ्चदशवाक्यानि वदत सारथिः सारथी सारथयः चालयति चालयतः चालयन्ति सो सारथिः चालयति सारथी चालयतः सारथयः चालयन्ति ओके द नेक्स्ट् वन् इस् मुनिः मुनी मुनयः जपति जपत जपन्ति मुनिः मुनिः जपति मुनी जपतः मुनयः जपन्ति
समीचीनं भगिनि अस्तु चलभगिनी अग्रिमं करोति वा धन्यवादः
शत्रुः असूयति शत्रुः असूयतः शत्रवः असूयन्ति
हा समीचीनं हा रामनाथ महोदय अग्रिमम्
इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति
अस्तु तत्र तत्र रामनाथ महोदय तत्र पञ्चदशवाक्यानि इति अस्ति अतः यत् चतुर्थः यत् यदि करोति चेत् अत्र अपि चतुर्थः तादृशनियमः नास्ति किमपि हरति इत्युक्ते किल् हरति हरति इत्युक्ते किल् 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 तत्र दुष्टः हरति दुष्टः हरति प्रायशः समीचीनमस्ति इति मन्ये तत् करोति वा दुष्टः हरति
इन्द्रियम् इत्युक्ते सेन्स् आर्गन्स्
आम् सत्यम् इन्द्रियम् इस् सेन्स् आर्गन् दुष्टः हरति इति प्रायशः समीचीनमस्ति इति मन्ये तत् करोतु
अश्वः वेगेन धावति
अश्वः धावति अस्तु तत् करोतु
अश्वौ वेगेन धावतः अश्वाः वेगेन धावन्ति
अस्तु अस्तु समीचीनं महोदय अस्तु सहोदय महोदय वदति वा
अनन्तरं महोदय
अस्तु 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 हरिमहोदय वदति वा
त्वं मोह्यसि युवां मोह्यथः यूयं मोह्यथ
मोहयत
मोहयत.
हा समीचीनं महोदय, समीचीनं. भानुभगिनी अग्रे.
दुष्टः दुष्टः विनश्यति, दुष्टौ विनश्यतः, दुष्टाः विनश्यन्ति.
हा समीचीनं भगिनि, समीचीनं. भानुचेतन महोदय.
त्वं वृथा मोहयसि, युवां वृथा मोहयतः, यूयं वृथा मोहयतः.
हा समीचीनं महोदय.
आम्
डेल्यूड्.
हा डेल्यूड्, डेल्यूड् इस् प्राब्लि हा प्राब्लि दट् तद् समीचीनम् अस्ति. डेल्यूड्, डेल्यूड्, D-E-L-U-D-E.
मोहं, मोहं,
मोहं.
ओके ओके.
मोहं, मोहं,
मोहं.
भ्रम, भ्रम.
तस्य अर्थः कः?
भ्रम, भ्रम. तत्कारणे बुद्धिः दश्य भवति मोहस्य कारणे.
अस्तु अस्तु
महोदय.
समीचीनं
महोदय.
सति महोदय वदतु.
किं वदति, किं वदति? त्वं मोहय, मोहयसि, किं वदति?
वृथा मोहयसि.
त्वं वृथा मोहयसि, वृथा. बालचेतनी महोदय अर्थः इति एकवारं वदतु तत्र.
वृथा इति आङ्ग्लभाषायाम् अन्नेसेसरिलि वितौट् एनी
वाक्यस्य त्वं, हा त्वं वृथा मोहयसि इति वाक्यस्य अर्थः वदतु तत्र.
You are unnecessarily deluding yourself.
धन्यवादः.
अस्तु, अस्तु. अन्य कः? श्रीकान्त् महोदय वदति वा? तत्र किमपि अत्र प्रथमकोष्टके किमपि चिनोतु, द्वितीयकोष्टके अपि किमपि चिनोतु.
दुष्टः विनश्यति, दुष्टौ विनश्यतः, दुष्टाः विनश्यन्ति.
विनश्यन्ति, 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 तावदेव. विनश्यन्ति तावदेव. समीचीनं महोदय. लक्ष्मीकान्त महोदय तत्र वक्तुमिच्छति वा?
आं महोदय. त्वं चालयसि, त्वं चालयतः, यूयं चालयथ.
हा अस्तु. अन्य अन्य कोऽपि भवतः गृहे?
अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति.
हा समीचीनम्. अस्तु, अन्य कोऽपि?
दुष्टः विनश्यति, दुष्टौ विनश्यतः, दुष्टाः विनश्यन्ति.
समीचीनं, समीचीनम्. अस्तु, कः न उक्तवान् एतावत् पर्यन्तं? सर्वे उक्तवन्तः इति मन्ये. यदि कोऽपि न उक्तवान् अथवा उक्तवती कृपया वदतु. अस्तु, अस्तु. इदानीं सहोदय महोदय वदति वा इदानीं? अस्तु, वदतु.
त्वं चालयसि, युवां चालयतः, यूयं चालयथ.
समीचीनं महोदय, बहु समीचीनमस्ति. अस्तु, अतः अनेकाः अनेकानि वाक्यानि वक्तुं शक्नुमः तत्र प्रथमकोष्टकं द्वितीयकोष्टकं तस्य उपयोगेन, कोष्टकद्वयस्य उपयोगेन अनेकानि वाक्यानि रचितुं शक्नुमः तत्र. अस्तु, इदानीं किञ्चित् अग्रे गच्छामः. तत्र कः वक्तुमिच्छति? अस्तु, पश्यामः. हा श्रीकान्त महोदय, तत्र अग्रिमपुटे पञ्चम अभ्यासः, चतुर्थ अभ्यासः पूर्वमेव कृतवन्तः, अतः पञ्चम अभ्यासः इदानीं कुर्मः. पुटसङ्ख्या 41 मध्ये, पञ्चम अभ्यासः. तत् कृपया पठित्वा प्रथमं अथवा द्वितीयं करोतु तत्र.
अहम् आवां वयम् एकेषु उचितस्य रूपस्य प्रयोगेन एकेषां प्रश्नानाम् उत्तराणि लिखत् त्वं फलं प्राप्नोषि किम्? आम् अहं फलं प्राप्नोमि.
हा समीचीनं महोदय, समीचीनम् अस्तु. द्वितीयमपि कर्तुम् इच्छति वा? नो चेत् चिन्ता मास्तु. अस्तु,
भवन्तः गीतां जानन्ति किम्? न, अहं गीतां न जानामि.
हा किन्तु तत्र भवन्तः इति अस्ति, तत्र भवन्तः वचनं किं?
वयं.
हा समीचीनं. हा हा
वयं गीतां न जानामि. जानन्ति,
जानीमः, जानीमः इति
अस्ति,
जानीमः इति अस्ति. हा तत्र, हा जानीमः तत्र प्रायशः रूपं न दत्तम् अस्ति, किन्तु न जानीमः इति तदेव अस्ति. जानीमः, समीचीनं महोदय. अस्तु, भानुचैतन्य महोदय अग्रिमं करोति वा?
आं महोदय. यूयं पाठं शृणुथ किम्? वयं पाठं शृणोमि, शृण्मः.
शृण्मः यूयं
वयं पाठं शृण्मः.
हा अस्तु, आम् इति उत्तरे आम् इति. हा अस्तु महोदय. हा अग्रिमं कः कर्तुम् इच्छति? हरि महोदय करोति वा अग्रिमम्?
आम् महोदय. यूयं श्लोकान् चिनुथ किम्? वयम् आम् वयं श्लोकान्
चिनुमः. हा चिनुमः, तावदेव अस्ति. अस्तु, श्रोत्य महोदय अग्रिमं करोति वा?
आम्. भवती गीतासारं जानाति किम्? आम्, गीतासारं जानामि.
हा समीचीनं महोदय, समीचीनम्. अस्तु, भानुभगिनी अग्रिमम्.
युवां गीतापुस्तकं गृह्णीतः किम्? युवां आवां गीतापुस्तकं गृह्णीवः.
हा तत्र गृह्णीवः, गृह्णावः इति प्रायशः अस्ति.
गच्छावः, गृह्णीतः, गृह्णावः.
गृह्णावः इति मन्ये, किन्तु तत्र वयं न कृतवन्तः एतत्. तत्र यदि
गृह्णीवः, आवां गीतापुस्तकं गृह्णीवः. आम्
अस्तु, तदेव स्वीकुर्मः. अस्तु भगिनि, हा अग्रे अग्रे पश्यामः रूपं किम् इति, तदेव इदानीं स्वीकुर्मः. अस्तु, अस्तु, सरदा भगिनी कृतवती वा?
युवां त्वं कार्यं कर्तुं शक्नोषि किम्? अहं कार्यं कर्तुं शक्नोमि.
शक्नोमि, अस्तु भगिनि. रामनाथन् महोदय अग्रिमम्.
युवां जीवनलक्ष्यं प्राप्नुतः किम्? आवां जीवनलक्ष्यं
प्राप्नुवः. समीचीनम्. अस्तु, गीता भगिनी. गीता भगिनी,
भवन्तः गीतायाः कण्ठस्थीकरणं कुर्वन्ति किं भवन्तः भवन्तः इत्युक्ते वयं गीतायाः कण्ठस्थीकरणं
कुर्मः अस्तु. अन्तिमवाक्यम् अस्ति तत्र भवती एव करोति वा अथवा
भवन्तः पुष्पाणि चेतुं शक्नुवन्ति किं वयं पुष्पाणि चेतुं शक्नुमः
समीचीनं भगिनि समीचीनं शक्नुमः
धन्यवादः.
अस्तु इदानीं किञ्चित् केवलम् अभ्यासः इति अस्ति इति कृत्वा एतत् कथा अहम् एकां कथाम् अहं प्रेषितवान् तत् अद्य पठामः. सर्वे प्राप्नुवन्तः वा तत् कथा?
आं महोदय.
अस्तु तत्र बालमोदिनी इति सन्देशः सम्भाषणसन्देशः इति बहु समीचीनम् अस्ति संस्कृतभारत्याः पत्रिका. तत्र बालमोदिनी इति अस्ति. अस्तु तत्र कः पठति इति पश्यामः. अस्तु भानुभगिनी तत्र पठति वा तत्र किञ्चित्?
आम् महोदय. कश्चन ग्रामः अत्र कश्चन ग्रामः तत्र काचित् वृद्धा निवसति स्म. तस्याः गृहस्य पार्श्वे कश्चन कूपः आसीत्. सा वृद्धा ततः एव जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म. तस्याः गृहस्य पार्श्वे भैरवः नाम कश्चन दुष्टः निवसति स्म.
हा समीचीनं भगिनि. हा अग्रे अन्य सरला भगिनी अग्रे पठति वा?
आं महोदय. परपीरनाथ एव तस्य महान् सन्तोषः. कदाचित् सः वृद्धायाः कूपं स्वस्य इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान्. कूपसमीपे आगमनाय अपि वृद्धायै अनुमतिं न दत्तवान्. भैरवस्य सेवकाः अपि दुष्टाः आसन्. अतः ग्रामजनाः तस्मात् भीताः भवन्ति स्म सर्वदा.
हा धन्यवादः भगिनि. हा अग्रे
महोदय कुत्र अस्ति स्टोरी?
एतत् अहम् ईमेल् मध्ये प्रेषितवान्. लिङ्क् अस्ति ईमेल् मध्ये. पेज् 23 अस्ति एतत्.
अद्य ईमेल् प्रेषितवान्?
आमामाम् अद्य प्रेषितवान्. प्राप्तवती वा?
न महोदय. Following story, that is the link. Yeah, the following story, yeah.
Tatra link asti, Asto. Kaha agre patiti
asto. Zero.
Asto, tatra Srikant Mahodhyar kinchit agre patiti va?
Mama agre material nasti.
अस्तु 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 महोदय. हा हरि महोदय पठति वा अग्रे?
आं महोदय. कूपः भैरवेण वशीकृतः इत्यतः
वृद्धायाः कष्टम् आरब्धम्। पानजलाय अपि तया अन्यः आश्रयणीयः अभवत्। एतस्मात् खिन्ना सा राजधानीं गत्वा एतं विषयं राजानं निवेदितवती। राजा अहं विचारयिष्यामि इति उक्त्वा तां ततः प्रेषितवान्।
अद्य एतावत् यदस्ति तत् तस्य तत् किम् अस्ति इति परिशीलयामः। अग्रिम वर्गे अग्रे गच्छामः। कश्चन ग्रामः इति अस्ति, तत्र कश्चन इति प्रयोगस्य ग्रामः इति सर्वे जानीमः। कश्चन इत्युक्ते असर्टन्, कः प्लश्चन कश्चन इति भवति। ग्रामः पुल्लिङ्गे अस्ति अतः तत् कश्चन भवति। तत्र काचित् वृद्धा, वृद्धा जानीमः का इति, का वृद्धा, तत् स्त्रीलिङ्गे अस्ति। कश्चन तत्र चन अथवा अचित् इति प्रयोगः भवति, अग्रे पश्यामः, गीतासोपाने एव भवति तत्। काचित् इत्युक्ते सर्टन्, कश्चन सर्टन्। काचित् वृद्धा निवसति स्म, स्म इति प्रयोगे किं भवति, वर्तमानकालः नास्ति किन्तु भूतकाल कालरूपम् इति। इदानीं वृद्धा अत्र नास्ति किन्तु सा निवसति स्म, इदानीं न किन्तु पूर्वकाले सा निवसति स्म। कुत्र?
ग्रामे।
ग्रामे। बालचैतन्य महोदय वदतु।
कश्चन ग्रामः, तद् कश्चित् ग्रामः अपि वक्तुं शक्यते,
तदपि चित् 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 अपि चन समानार्थकस्य शब्दः, चित् अथवा चन
समानमेव,
समानमेव, काचन भेदः नास्ति, भेदः नास्ति। यत् यदपि इच्छामः तत् तत्र तस्य प्रयोगं कर्तुं शक्नुमः।
आम् आम् धन्यवादः।
तत्र तत्र ग्रामे काचित् वृद्धा निवसति स्म, स्म इत्युक्ते वर्तमानकाले, इदानीं न किन्तु गतकाले, पूर्वतनकाले। तस्याः षष्टिविभक्ति जानीमः, तस्याः गृहस्य पार्श्वे, वयं किं दृष्टवन्तः अधोभागे, तस्य अधः, तद् सर्वं दृष्टवन्तः, तस्य उपरि, तस्य पृष्ठतः, तस्य पुरतः, किन्तु तस्य पार्श्वे अपि वक्तुं शक्नुमः। तस्याः गृहस्य, वृद्धा अस्ति, वृद्धायाः गृहस्य पार्श्वे कश्चन कूपः आसीत्। कूपः इति सर्वे जानन्ति खलु, कूपः, तत्र चित्रे अस्ति, कूपः अस्ति तत्र, कूपः आसीत्। सा वृद्धा ततः, ततः इत्युक्ते कूपः अस्ति कूपतः, सा वृद्धा ततः एव जलम् आनीय, आनीय इत्युक्ते स्वीकृत्य इति, टेक् और् ब्रिङ्ग्, दैनन्दिनकार्याणि, प्रतिदिनम् अनेकानि कार्याणि कुर्मः खलु, तस्य न तेषां नाम भवति दैनन्दिनकार्याणि इति। दिनस्य कार्यं, प्रतिदिनस्य कार्यं दैनन्दिनकार्याणि निवर्तयति स्म, निर्वर्तयति स्म। तस्याः गृहस्य पार्श्वे भैरवः नाम कश्चन दुष्टः निवसति स्म। वृद्धा अस्ति, वृद्धा प्रतिदिनं कूपः समीपे अस्ति, तस्य गृहस्य समीपे कूपः अस्ति, सा वृद्धा किं करोति, प्रतिदिनं जलं स्वीकरोति कूपतः, ततः स्वीकृत्य दैनन्दिनकार्याणि प्रतिदिनं करोति स्म सा। पार्श्वे, गृहस्य पार्श्वे कश्चन दुष्टः आसीत्, तस्य नाम भैरवः इति। सः अपि तत्र एव निवसति स्म। परपीडनात् एव तस्य महान् सन्तोषः. भैरवस्य सन्तोषः कीदृशः इत्युक्ते अन्यान् जनान् ते अन्यान् जनान् पीडितुं सः बहु सन्तुष्टः भवति. यदि अद्य एकं पुरुषं सः पीडितवान् चेत् सन्तोषः, पुरुषद्वयं पीडितवान् चेत् अधिकसन्तोषः इति. तादृशः परपीड, पर इत्युक्ते स्वः न अन्यजनान्, परपीडनात् एव तस्य महान् सन्तोषः. कदाचित् सः एषः भैरवः सः किं कृतवान्, वृद्धायाः कूपं स्वस्य इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान्. वृद्धायाः कूपः अस्ति, किन्तु भैरवः किं कृतवान्, एषः कूपः मम इति उक्त्वा प्रतिपादयन् स्वस्य, स्वं स्वस्य, तदपि षष्टिविभक्ति अस्ति. वृद्धायाः कूपं स्वस्य इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान्. तत्र किञ्चित् दीर्घवाक्यमस्ति, किन्तु आरब्धवान् तत्र क्रियापदमस्ति. यत्र वाक्यं पश्यामः क्रियापदं किं, कर्म कर्तृपदं किम् इति तस्य किञ्चित् अवगमनं भवतु तत्र. आरब्धवान् इति क्रियापदं. कूपसमीपे आगमनाय अपि वृद्धायै अनुमतिं न दत्तवान्. प्रतिदिनं वृद्धा कूपस्य समीपे आगत्य जलं स्वीकरोति स्म. इदानीं किम् अभवत्, एषः भैरवः समीपे आगन्तुमपि तत्र तस्य वृद्धा समीपं यदि आगच्छति चेत् न न अत्र मा आगच्छतु इति कृत्वा सा समीपे आगन्तुम् अनुमतिं न दत्तवान् एषः भैरवः. भैरवस्य केवलं भैरवः एकः दुष्टः न, भैरवस्य सेवकाः अपि दुष्टाः आसन्. तत्र अनेकाः दुष्टाः सन्ति. अतः ग्रामजनाः तस्मात् भीताः भवन्ति स्म सर्वदा. ग्रामजनाः भैरवं दृष्ट्वा अथवा भैरवस्य सेवकान् दृष्ट्वा भीतिः अनुभवन्ति स्म. अस्तु, अत्र प्रश्नः अस्ति वा?
इदानीं भैरकस्य सेवकः अस्ति, भैरक ओनर
भैरवः, भैरवः अस्ति सेवकाः. भवान् जानाति खलु, कोऽपि यदि वि ऐ पि अस्ति चेत् तस्य अनेकाः सेवकाः सन्ति खलु. तादृश अर्थः, भैरवः स दुष्टः, तस्य अनेकाः दुष्टाः सेवकाः सन्ति. यदि भैरवः तत्र नास्ति चेत् अपि भैरवस्य सेवकः यदि एकः अस्ति चेत् अपि वृद्धा तत्र कूपस्य समीपे गन्तुं न शक्नोति इति अर्थः. अवगतं वा? हा, अस्तु. अतः वृद्धायाः
भीताः अर्थं किं महोदय?
भीताः इत्युक्ते फियर्, फियर् भीताः, भीतिः इति फियर्. हा, भीताः भवन्ति, भीताः जनाः भीताः, तत्र अड्जेक्टिव् फियर्फुल् इति. ग्रामजनाः इति विशेष्यमस्ति, विशेषणमस्ति भीताः इति. भीताः ग्रामजनाः इति तत्र भवति. अग्रे पश्यामः, किन्तु भीताः इत्युक्ते फियर्फुल् इति. अन्यप्रश्नः अस्ति वा तत्र?
एकः प्रश्नः अस्ति. निर्वर्तयति इत्युक्ते?
निर्वर्तयति प्रतिदिनं कार्याणि. शि यूस् टु कण्डक्ट् और् डू हर् रेग्युलर् टास्क् एव्री डे, डेलि टास्क् करोति इति
अर्थः.
दैनन्दिन दिनस्य कार्यं दैनन्दिन इति. दैनन्दिनकार्याणि इति तत्र अनेकाः विषयाः सन्ति किन्तु किञ्चित् अभ्यासः भवतु इति तावदेव अहं स्वीकृतवान् एतत् एतां कथां नो चेत् केवलम् अभ्यासः इति भवति किञ्चित् अन्यः सम्भाषणं तत् सर्वं समीचीनं भवति इति कृत्वा हा अस्तु हा अग्रे गच्छामः कूपः भैरवेण वशीकृतः इत्यतः इदानीं कूपः किं भवति भैरवेण वशीकृतः इट्स् बिन् सीज्ड् बै द भैरव इट्स् इन् द कण्ट्रोल् आफ् भैरव कूपः भैरवेण वशीकृतः इत्यतः and because of that karanat vrudhayah kashtam arabdham from then on once the well was taken over by Bhairava from that difficulties of the old lady began vrudhayah kashtam arabdham pana jalaya api taya anyah ashrayaniyah abhavat even for drinking water, just even for drinking water, pana jalaya api taya by her anyah ashrayaniyah abhavat. She had to go and rely, she had to rely on the mercy of others, even for drinking water. Etasmat khinna, because of this, she was sad, etasmat, because of this reason, in the previous sentence, etasmat khinna sa सा वृद्धा राजधानीं गत्वा राजधानीम् इत्युक्ते किं राज्यम् अस्ति हा राजधानी अस्ति राजधानीम् इति कर्मपदं तत्र भवति सा राजधानीं गच्छति किन्तु गच्छति तदनन्तरम् अन्यत् किमपि करोति अतः सा राजधानीं गत्वा एतं विषयं कूपस्य विषयं राजानं निवेदितवती हा तत्र राजानम् इति अस्ति हा राजन् इति पदः अस्ति राजा इति यत् वदामः किन्तु किञ्चित् क्लिष्टपदमस्ति अतः महाराजा इति वदामः राजानम् इति अथवा राजानं निवेदितवती सा राजधानीं गत्वा एतत् विषयं राजानं निवेदितवती तत्र राजस्य समीपे महाराजस्य समीपे गत्वा एतत् अभवत् कूपः अस्ति किन्तु एषः भैरवः दुष्टः अस्ति सः कूपस्य समीपे गन्तुम् अनुमतिं न ददाति इति सर्वं सा वृद्धा राजं उक्तवती राजा किम् उक्तवान् अहं विचारयिष्यामि इति उक्तवान् इति उक्त्वा तां वृद्धां ततः इत्युक्ते यद् राजधानी अस्ति राजगृहम् अस्ति राजप्रासादम् इति वदामः प्यालेस् इति ततः प्रेषितवान् सो प्रश्नः अस्ति वा अवगमनम् अस्ति वा तत्र प्रथम पाराग्राफ् मध्ये अथवा द्वितीय पाराग्राफ् मध्ये परिच्छेदः मध्ये किं किम् अस्ति इति
राजा अस्ति
कुत्र कुत्र महोदय अन्तिमवाक्ये वा
अन्तिमवाक्यं
हा ताम् इत्युक्ते वृद्धां वृद्धाम् इति वयं हा वृद्धां दृष्टवन्तः वा न दृष्टवन्तः ताम् इति हा
वृद्धां
अग्रे अग्रे ताम् इति अहम् एकवारं वदामि वृक्षः अस्ति अहं तं वृक्षं पश्यामि इति भवति वृक्षः अस्ति किन्तु अहं तं वृक्षं पश्यामि उत्पीठिका अस्ति स्त्रीलिङ्ग उत्पीठिका अस्ति आं ताम् उत्पीठिकां पश्यामि इति भवति तत्र ताम् इति राजा किं कृतवान् राजा तां वृद्धां ततः प्रेषितवान् इति भवति तत्र. अन्यप्रश्नः अस्ति वा? तत्र खिन्ना सा खिन्ना, यदि सः अस्ति चेत् खिन्नः इति भवति. तत्र विशेषणं विशेष्यम् इति वदामः, अड्जेक्टिव् अपि नामपदम् इति. पानजलाय तत् चतुर्थी विभक्तिरूपम् इति भवति, अग्रे पश्यामः किमर्थं तत् तादृशरूप अस्ति इति. एतस्मात् गत्वा, तत्र गत्वा, कृत्वा, उक्त्वा, कार्यम् एककार्यमस्ति, तत् कार्यं कृत्वा अन्यकार्यं कुर्मः चेत् कृत्वा गत्वा इति तादृशरूपं भवति. त्वा इति भवति तत्र, त्वान्तरूपम् इति तादृश प्रयोगः अस्ति. अस्तु, एकवारम् अग्रे एकवारं पठामि, किन्तु अग्रिमे वर्गे पश्यामः. किन्तु एकवारं अन्यकोपि पठति वा? भानुचैतन्य महोदय अग्रे पठति वा?
आं महोदय. गुप्तचरद्वारा राजा ज्ञातवान् यत् वृद्धायाः वृत्तान्तं सत्यम् इति. अतः अनन्तरदिने सः तं ग्रामं गत्वा वृद्धायाः गृहं विचार्य तस्याः कूपसमीपं गत्वा स्थितवान्. तस्य आगमनं ज्ञात्वा बहवः जनाः अपि तत्र उपस्थिताः. परितः अवलोक्य राजा उच्चैः उक्तवान्, एषः कूपः कस्य? अहम् एषु दिनेषु ज्ञातवान् यत् एतस्मिन् कूपे महती सम्पत् आसीत् इति. अतः एषः कस्य इति अहं ज्ञातुम् इच्छामि इति.
समीचीनं महोदय. तत्र कथायां यत् सन्देशकथाया अस्ति, तत्र तृतीयपरिच्छेदः अस्ति, प्रायशः वाक्यद्वयं तत्र कर्तुं शक्नुमः. अस्तु, गुप्तचरद्वारा. गुप्तचर इत्युक्ते कः? कोऽपि वदति वा? स्पैस्. यः चरति, स्पैस्, गुप्तचर. गुप्तचरद्वारा, द्वारा इत्युक्ते बै मीन्स् आफ् और् ड्यू टु स्पैस्, ड्यू टु दि इन्फर्मेशन् आफ् स्पैस्, राजा ज्ञातवान्. तस्य ज्ञानम् अभवत्. किं ज्ञानं? यत् वृद्धायाः वृत्तान्तं, यद्यत् सा वृद्धा उक्तवती तत्सर्वं सत्यमेव इति सः राजा ज्ञातवान्. वृद्धा सत्यमेव उक्तवती इति सः ज्ञातवान्. तदनन्तरं सः किं कृतवान्? अतः अनन्तरदिने सः तं ग्रामं गत्वा वृद्धायाः गृहं विचार्य तस्याः कूपसमीपं गत्वा स्थितवान्. एतदेव उक्त्वा विरमाम. अतः अनन्तरदिने, अग्रिमदिने अथवा तस्य अग्रिमदिने वा किमपि, सः राजा तं ग्रामं, वृद्धायाः ग्रामं गत्वा वृद्धायाः गृहं विचार्य, सः न जानाति कुत्र अस्ति वृद्धायाः गृहम् इति, सः पृष्टवान् वृद्धा, एषा एका वृद्धा अस्ति, तस्याः गृहं कुत्र अस्ति इति विचार्य सः वृद्धायाः गृहं प्राप्तवान्. तस्याः गृहस्य समीपे कूपः अस्ति, तत्र कूपसमीपं सः गत्वा तत्र स्थितवान्. इदानीं राजा वृद्धायाः कूपस्य समीपे अस्ति. तत्र किं करोति इति अग्रिमे वर्गे पश्यामः. किन्तु भवन्तः अग्रे पठितुं शक्नुवन्तः किञ्चित् पठन्तु, पश्यन्तु यद्यद् अवगच्छन्ति इति. एकं वदामि, अग्रिमे रविवासरे अहम् अत्र न सरामि, अहं जपान् देशं गच्छामि, अतः अग्रिमसप्ताहे वर्गः नास्ति. किन्तु तस्य अग्रिमे सप्ताहे वर्गं साधारणतया प्रचलति एव. अस्तु, अग्रिम नो क्लास् बट् देन् फालोविङ्ग् सण्डे विल् रिस्यूम्. नमस्कार, नमस्कार, विरमाम इति. अस्तु, नमस्कारः सर्वे,
नमस्कारः, धन्यवादः,
नमस्कारः, धन्यवादः, नमस्कारः.